एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली भाषते दैजी छेला स्थानीय औद्योगिक क्षेत्रे विशेषेण एकमुष्ट कार्यक्रमेण सह उद्योगोत्पादनशालाः स्थापयिष्यन्ते। कञ्चनपुरस्य बेलकुटवर्तिनो दैजिक छेलोद्योगिक क्षेत्रस्य ह्य शिलान्यासं विदधानः प्रधानमन्त्री ओली अवदत् ग्रामीणोद्योगिक क्षेत्रं विपुलोद्योगाञ्च सञ्चालयितुं सर्वकारः तल्लीनो वर्तते। सुदूरपश्चिम प्रदेश प्राकृतिक सौन्दर्येण परिपूर्णोऽस्ति इति ब्रुवन् प्रधानमन्त्री ओली प्राचीनेतिहासस्य साक्षिणः सुदूरपश्चिमस्य विकासाय अग्रिप्रवर्धनस्य आवश्यकतां प्रादर्शयत्। अतपरं नेपाले कदापि विद्युत भार न्यूनीकरणं न भविष्यति इति चर्चयन् प्रधानमन्त्री ओली अब्रवीत् आगामिनो वर्षद्वयस्य अनन्तरं नेपालेन उत्पादितायः विद्युतः वैदेशिक राष्ट्राय विक्रयकारिणी योजना वर्तते। प्रधानमन्त्री ओली विराटनगरे आयोजितायां जनसभायां सम्बोधनस्य क्रमे देशः आन्दोलने चलतीति कथितं सत् प्रधानमन्त्री आन्दोलनं करोमीति उक्तवान् इति निगद्य असत्य व्याख्या विहितेति संस्पष्टयत्। प्रधानमन्त्री ओली भागीरथी भट्टस्य घातकं दण्डनस्य परिधौ आनेतुं प्राप्तां सफलताम् आदृत्य सम्बद्धान् सर्वान् पक्षान् प्रशंसन् निर्मलापन्तस्य घातकमपि एवं क्रमेण दण्डनस्य सीमायाम् आनेतुं निरदिशत। तदवसरे उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्ट अवदत् स्वल्प मध्यम विपुलोद्योगानां स्थापनाय नवशत बिघा परिमित क्षेत्रफलेन व्यापृते दैजिक छेलोद्योगिक क्षेत्रे तत्कालं 50+7 बिघा परिमित भूमौ कार्यं प्रारभ्यते। मेलञ्ची पेय जलायोजनायाः 37.5 किलोमीटर मित बिल सरण्याम् ह्यः जलं प्रवेशयित्वा पुनः परीक्षणं प्रारब्धं वर्तते। आयोजनस्थले अम्बाथान वर्तिन्यां भूमिगत सरण्यां परीक्षणस्य शुभारम्भं विदधानः पेयजल मन्त्री मणिचन्द्र थापा अवोचत् पेयजल वितरणस्य प्रारम्भम् अनु महती उपलब्धिः प्राप्स्यते। एतत्पूर्वं गताषाढमासस्य 21 दिवसे जलपरीक्षणं प्रारभ्य 30 दिवसे 17 भञ्जनात् जनद्वयस्य विलुप्तेः अनन्तरं परीक्षणं पुनः स्थगितकृतम् आसीत्। गोर्खा जनपदे एकस्मिन् एव गृहे सुप्ताः त्रयो जनाः मृतावस्थायां प्राप्ताः वर्तन्ते। गोर्खा जनपदस्य बारपाक सुलिकोट ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य बारपाक स्थाने गत रविवासरस्य रात्रौ एकस्मिन् एव गृहे सुप्ताः 84 दिलबहादुर गुरूङ, तदीया पुत्रवधु 22 आइत कुमारी गुरूङ, 13 प्रपौत्री उषा गुरूङ च ह्यो मृतावस्थायां प्राप्ताः इति गोर्खा जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। घटनायाः अनुसन्धानं विधीयमानं वर्तते इति गोर्खा जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी परीक्षकः सुरेन्द्र बहादुर गुरूङ अज्ञापयत्। उप प्रधानमन्त्री ईश्वर पोखरेलः भाषते निर्धारित समय एव निर्वाचनं भविष्यति। ह्यो भरतपुर विमानस्थले पत्रकारैः भाषमाणः असौ निर्वाचनाय अर्थ मन्त्रालयेन वित्तं प्रदत्तं निर्वाचनायोगेन प्रक्रिया अग्रे वर्धापिता सुरक्षा प्रवृत्तिनि अन्य कार्याणि च तीव्ररूपेण विधीयमानानि सन्तीति अवोचत। उप प्रधानमन्त्री पोखरेल अकथयत् सर्वकारेण निर्वाचनायोगाय सर्वोच्च न्यायालयाय च बलसर्जनं विहितं नास्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता परराष्ट्र मन्त्री च प्रदीप कुमार गेवाली गदति दलस्य उपसमूहानां संयुक्त संयुतेः उत्थापनस्य सामर्थ्याभावस्य कारणेन नेकपा दलं बल्मिकेन भक्षितस्य सालवृक्षस्य अवस्थायं प्राप्तं वर्तते। नेकपा दलस्य गुल्मी जनपद समित्या गतदिने तमघास्थाने आयोजिते अग्रणी कार्यकर्तृ मेलने मन्त्री गेवाली अवोचत् कतिचित् नेतृणां परिवेष्टनस्य कारणेन राष्ट्रस्य राजनीतिं सबलीकर्तुम् अवरोधः सृष्टो वर्तते। विद्यमानै विधिनियमै संसारस्य प्रचलनेन अभ्यासेन च राष्ट्रं नवीन जनादेशाय प्रस्थीयमानमस्ति इति भाषमाणः मन्त्री गेवाली दलस्य आभ्यन्तराम् अनुचित लाभकारिणीं राजनीतिं परिवेष्टनं च विच्छिद्य निर्वाचनस्य पूर्वकार्ये सन्नद्धाः भवितुं कार्यकर्तृन् निरदिशत। कार्यक्रमे लुम्बिनी प्रदेशस्य मुख्यमन्त्री नेकपा दलस्य स्थायी समितेः सदस्यश्च शंकर पोखरेलः सर्वकारेण कालापानी लिपुलेख लिम्पियाधुरा भूभागैः सहितस्य मानचित्रस्य विहितं प्रकाशनमनु प्रधानमन्त्रिणम् ओलिनं प्रधानमन्त्रितः दलाध्यक्षाच्च निष्कासयितुम् अपेक्षितमिति धारणां प्राकटयत्। शिक्षा विज्ञान प्रविधि मन्त्री कृष्ण गोपाल श्रेष्ठ गदति संघीय शिक्षा अधिनियमस्य आनयनस्य विषय विमर्शनम् विधीयमानम् वर्तते। लुनिवा बाल सम्बद्ध समूहेन ह्य ललितपुरे आयोजिते अन्तर क्रिया कार्यक्रमे शिक्षा मन्त्री श्रेष्ठ अष्टविंशत्यधिक द्विसहस्रतम वैक्रमाब्दस्य शिक्षाधिनियमस्य परिवर्तनम् विधाय शिक्षायाम् आमूल परिवर्तनाय बलम् प्रादात्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री डाक्टर शिवमाया तुम्बहाम्फे गदति समस्याग्रस्ता सहकारी संस्था कठोरेण निरीक्षन्ते। भूटवलस्थाने द्विदिवसीयाया सहकारी संस्थानां माध्यमेन आर्थिक समृद्ध्यै प्रदेश स्थानीय स्तराणां भूमिका विषयिण्या प्रादेशिक गोष्ठ्या समापन कार्यक्रमे ह्यो मन्त्री तुम्बहाम्फे अवोचत् कतिचित् व्यक्तिनां कारणेन सहकारी संस्था समस्याग्रस्ता विद्यमाना सन्ति। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति नेपालेन सूचना प्रविधि क्षेत्रस्य विकासः प्राथमिकतायां स्थापितोऽस्तीति हेतोः अत्र मित्र राष्ट्रे अर्जितं ज्ञानं शिल्पं अनुभवश्च उपयोगिनः भवन्ति। मन्त्रिणः गुरूङ इत्यस्य नेपालस्य कृते इजरायल देशस्य राजदूतस्य च मेलवार्ताया क्रमे मन्त्री गुरूङ इजरायल देशेन भूपग्रह प्रविधि क्षेत्रे विहितां प्रगतिम् अधिगच्छन् अवोचत् नेपाल सर्वकारेण वैद्युताङ्कनयुत नेपाल संरचनाया क्रियान्वयनं प्राथमिकतया अग्रे वर्धापितम् अस्तीत्यतः अन्य देशैः सूचना प्रविधि क्षेत्रे विहितो विकासः नेपालाय अत्युपयोगी भविष्यति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री भानुभक्त ढकाल कथयति मातृभाषाणां मौलिकतायाश्च सबलतायां सत्यमेव देश सबलो भविष्यति। एतत् ख्रीष्टाब्द्यान्तर राष्ट्रिय मातृभाषा दिवसस्य सन्दर्भे नेपाल प्रज्ञा प्रतिष्ठानेन गतदिने काष्ठमण्डपे आयोजितायां मातृभाषा मातृभाषा साहित्यञ्च इति विषयिण्यां गोष्ठ्यां मन्त्री ढकाल मातृभाषायाः महत्वं जनस्तरे प्रापयितुं बलम् अदात्। सर्वकारेण द्वितीय चरणस्य अन्तर्गतम् अस्यैव फाल्गुनस्य त्रयोविंशात् दिवसात् पञ्चपञ्चाशत् वर्षेभ्यः अधिकवयस्केभ्यः सर्वेभ्यो नागरिकेभ्यः कोरोना विरोधी टीकाकरणं विधातुं पूर्वकार्यं विहितं वर्तते। एतदर्थम् अस्यैव फाल्गुनस्य षोडश दिवसं यावत् स्वस्य स्थानीय स्तरस्य ज्येष्ठ नागरिकाणां तथ्याङ्कान् संकलय्य प्रेषयितुं सर्वे स्थानीय स्तराः अनुरुद्धाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। इति समाचारः।